नमस्सर्वेभ्यः अद्य विभक्तिवर्गे अष्टादशः पाठः एप्रिल् मासस्य त्रयोविंशः दिनाङ्कः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो पञ्चमी विभक्तेः अध्ययनं प्रचलति तत्र किञ्चित् पुनरावर्तनं कुर्मः ततः पूर्वम् ऐ जस्ट् लैक् टु इन्फार्म् यू आल् दट् आर् वेब्सैट् संस्कृत् फ्रम् होम् डाट् ऐ एन् इस् सम् टेक्निकल् इश्यूस् वित् द वेब्सैट् सो दट् ऐ मीन् द सैट् इस् ईदर् वेरि स्लो टु लोड् आर् डस् नाट् लोड् एण्ड् हेन्स् ऐ नाट् बीन् एबल् टु अप्लोड् द नोट्स् एण्ड् अदर् मेटीरियल्स् आफ़् द लास्ट् टु क्लासस् ऐ थिङ्क् The videos have been uploaded in YouTube, so you can refer to them. I'll upload the materials as soon as the website issues are resolved. So, Panchami Vibhakti. Apadana Vachakat Panchami Vibhakti Bhavati. Apadanam Namakim Iti Drishtam Prathamam Apadanam Bhavati Vibhagasya Avadhihi. The origin of separation, when there is separation between two, one of them gets separated from the other. So the point from which it gets separated is called apadana. So on this apadana we have panchami vibhakti. Vrikshat patati. Phalam vrikshat patati. Tatra vrikshaha apadanam. Balaha gramat agachati. Balika shalayaha लेखनीम् आनयति पुस्तकम् आनयति किञ्चित् सो फ्रम् द स्कूल् सो एतेषु स्थलेषु यत्र एतादृश्यः क्रियाः सो वर्ब्स् विच् लीड् टु सेपरेशन् पतति गच्छति आगच्छति आनयति स्वीकरोति इत्यादिषु अपादानं भवति विभागस्य अवधिः द्वितीयम् अपादानम् अपि दृष्टं भयस्य कारणम् व्याघ्रात् भीतः परीक्षायाः भयम् जनकात् बिभेति दुष्टात् त्रस्यति सो एनी फार्म्स् आफ् द धातु भी इट् इस् भय भीति भी आर् द थिङ्ग् आन् द फार्म्स् एनिथिङ्ग् सिमिलर्लि द त्रस्यति इस् अ सिमिलर् धातु सो यु हेव् त्रासः आर् त्रस्तः etc. So in all these cases the source of fear is apadana and it is expressed in panchami vibhakti. Panchami vibhaktehe rupani api drishtani. Balat balabhyam balebhyah. Mitrat mitrabhyam mitrebhyah. Balikayah balikabhyam balikabhyah. नार्याः नारीभ्यां नारीभ्यः एवं पञ्चमी विभक्तेः रूपाणि भवन्ति अग्रे तस्यैव अपादानं भयहेतुः इत्युक्तं भयार्थकानां धातूनां प्रयोगे भयहेतुः अपादानं भवति तथैव रक्षणार्थकानां धातूनां प्रयोगे अपि एतदेव अपादानं भवति आरक्षकाः चोरेभ्यः अस्मान् रक्षन्ति द पुलीस् प्रोटेक्ट् अस् फ्रम् द थीव्स् श्रीरामः राक्षसेभ्यः महर्षिगणं रक्षितवान् राम प्रोटेक्टेड् द सेजस् फ्रम् द डिमन्स् सः बालं सिंहात् रक्षति ही प्रोटेक्ट्स् द बाय् फ्रम् द लयन् स्वत्रापि चोराः राक्षसाः सिंहः इति भयस्य कारणम् So even in this case, even in the case of protection, for protection we need a source of fear. So it's only when there is fear from something that we need protection. Ataha rakshanarthakanam dhatunam prayoge api bhayasya karanam apadanam bhavati. Tasmat panchami vibhaktihi bhavati. Yatha vibha. Oh sorry. So prathamam apadanam asit vibhagasya avadhihi, point of separation. Dhuvam apaye apadanam iti sutram. Ataha apadane panchami vibhaktihi. Patati gachati agachati anayati ityadinam dhatunam vishaye. Kasmat athava kutaha. Kasmad agachati kutaha anayati ityadinam uttaram apadanam bhavati. Dvitiyam asit bhayasya karanam, the source of fear. Bhi trarthanam bhayahetuhu iti sutram. Bhi bhayam, tra trayate pati rakshati ityartha. Bhayarthakanam rakshanarthakanam cha prayoge bhayasya hetuhu, hetuhu karanam, bhayasya yat karanam tat apadanam bhavati. Bhayam bhitihi bhitaha bhihi vibheti trasyati trastaha ityadinam prayoge bhayasya yanmulam tasmat panchami vibhaktihi. Evameva rakshati paati trayate samanarthakaha sarve ityadinam api prayoge bhayasya yanmulam tasmat panchami vibhaktihi bhavati. Atra rakshati ityasya prayogaha kartavyaha yatha arakshakaha chorebhyaha rakshanti. Those who want to volunteer, please raise your hands. Padmanabhan,
yes. What are the avadis here? Okay. Oh, Vaidya. Vaidyaha rogat rakshati.
Rogaha.
Vaidyaha. Rogaha. Rogebhyaha.
Ha. Vaidyaha rogebhyaha rakshati.
Raja samas. I don't know what samasya is. So
problem.
Samasya.
It is strilingam.
Samasya bhyah rakshati.
Ha. Samya. Next. Harmandar Singh.
Vrishti avagrahat rakshati.
Vrishtihi avagrahat rakshati. Avagraha is drought, water scarcity. Yeah, so rain protects. Vrishtihi avagrahat rakshati.
Chhatram atapat rakshati.
Chhatram atapat rakshati. Chhatram, umbrella. Atapaha is the heat of the sun.
Devah sansarat rakshati.
Samyak. Uma Shankari.
Parikshat.
Padaraksha.
Padaraksat. Kantakani. Kantakabhyaha. Kantakabhyaha. Kantakabhyaha rakshati.
Padaraksha. Padaraksha. Rakshati. Yes. Padaraksha. Kantakebhyaha rakshati.
Rakshati.
Footwear protects from thorns.
Vastrani. Vastrani.
Shaityam.
Shaityam. Shaityat. Rakshanti.
Rakshanti. Vastrani.
Rakshanti. Vastrani. Vastrani Shaityat Rakshanti.
Sammyak. Vastrani Shaityat Rakshanti. So cloths protect from the cold. Lakshmi.
Yes.
Jnanam.
Jnanat.
Jnanam.
Jnanam. Avivivekita vikitat rakshati.
Trilingam. Avivekita.
Avivivekita tayaha rakshati.
Jnanam avivekitayaha rakshati. So knowledge protects from avivekita, is indiscrimination.
Sanmitram papat rakshati.
Ha, samyak. Sanmitram papat rakshati. A good friend protects from sins. Venkateshwaran.
Navikaha pravahat rakshati.
Ha. So the Navikaha, the boatman, oarsman, protects from the pravaha, the flood or the flow of the river.
Guruhu agyanat rakshati.
Guruhu agyanat rakshati. Evam bhayam rakshanam iti ubhayohu prayoge bhayahetohu bhayasya yatkaranam tasmat panchami vibhaktihi bhavati. Okay. So now let's try making some own sentences. Two sentences each. Ekam vakyam bhayam kasmat bhayam mama athava anyasya kasyachit. Yatha mama kim vyaghrat bhayam sarpat bhayam bhavati ityadi. Evam rakshati bhayam rakshanam iti ekaikam vakyam. One sentence for each of these. Okay, two sentences per person. So you can create anything, your own sentences, just frame them correctly. Okay. Meenakshi?
Yeah. Saha. Sarpat bhitaha.
Saha sarpat bhitaha. Samyak.
Raja. I will make another sentence. Guru. Shishyam agyanat rakshati.
Guruhu shishyam agyanat rakshati. Fine. Uttamam. Sharma Mahoday.
Mahyam sarpebhyah bhayam.
Mama sarpebhyah bhayam.
Atar chaturthya na bhavati.
Chaturthyah nimittam nasti. Nasti kim. Sammyak.
Moolika sarpasya
vishat rakshati. Samyak. Moolika sarpasya vishat rakshati. Uttamam. Mahadevan.
Mama bhariyaya.
That's true. Satyam. That's true. भार्या नास्ति यत्र श्रोतुम् गोपिकां रक्षति कृष्णः सर्पात् गोपिकां रक्षति सम्यक् राव महोदय
Can you hear me?
Yes.
Okay. Mama. Dushta. Bhimasti. Chaya.
आतपात् रक्षति छाया इस
छाया आतपात् रक्षति
सम्यक् वेंकटेशन
सगा चोरात् भयम् अनुभवति
सः चोरात् भयम् अनुभवति सः चोरात् भीतः सम्यक् आरक्षकात् प्रोटेक्ट् फ्रम् द पोलीस् इस् दट् वाट् यु वाण्ट् टु से यत्र आरक्षकः भयस्य कारणं तत्र तदपि भवितुमर्हति विवक्ष सो आरक्षकात् रक्षति कः रक्षति तत् चिन्तनीयम् यदि आरक्षकाः एव भयम् आनयन्ति तर्हि कः रक्षेत् नेक्स्ट् हरमन्दर् सिंह
बालायाः व्याघ्रात् भयम्
बालायाः व्याघ्रात् भयम् सम्यक्
सः बालान् व्याघ्रात् रक्षति
सः बालां व्याघ्रात् रक्षति सम्यक् उत्तमम् लक्ष्मी
दुष्टात् सज्जनः पिबेति
उत्तमम् सज्जनः दुष्टात् पिबेति
भगवान् देवः दुष्टात् सज्जनः रक्षति
सज्जनं रक्षति भगवान् दुष्टात् सज्जनं रक्षति उत्तमम् पद्मनाभन्
ओ ओके चोरात् भयम् आरक्षकः चोरात् रक्षति
मां चोरात् रक्षति पाल्
सः बालकात् भयम् सः
भल्लूकात् भीतः
बिभेति
यस्
And uh, So it was let's see, Shikshakaha Agyanat Rakshati.
Rakshati. Sammek. Venkateshwaran.
Mama.
Papad Bhiti Asti. Sammek.
Bhagavan. Papad Mam Rakshati.
Rakshati. Rakshatu. Sammek. Others, can you please think of and volunteer, please? Shri Priya.
Balakah adhyapakat bhayam asti.
Balakasya adhyapakat bhayam asti. Or balakah adhyapakat bhitah vibheti. Anything. Okay.
Devah asurat rakshati.
Devah asurat rakshati. Okay. Mahashankari.
Mama parikshat bhayam asti.
Strilingam pariksha.
Parikshayah.
Mama parikshayah bhayam asti.
Parikshayah bhayam asti. Aushadham rogat rakshati.
Aushadham rogat rakshati. Samyak.
Rakshati.
Yes. Rama. I think you have muted yourself. You need to unmute.
Namaste. Namaste.
Shruyate
va?
Shruyate. Vadatu.
Andhakarat bibhemi.
Aham andhakarat bibhemi. Samyak.
Jyotihi mam andhakarat rakshati.
Rakshati. Uttamam. Jyotihi mam andhakarat rakshati. Samyak. So others, those who haven't told so far, please volunteer. One, two sentences. So it could be anything. So Rajiv.
Chatraha parikshayaha bhayam prapnoti.
Prapnuvanti.
Prapnuvanti. Guruhu jnanam dhatva bhayat rakshati.
Bhayat rakshati. Samyak. Anybody else? Dhanya.
Mama putrasya kukurat bhayam asti.
Samyak.
Aham mama putram rakshami.
Kukurat rakshami.
Kukurat rakshami.
Mama putrasya kukurat bhayam asti. Samyak. Kukuraha shunakaha ityartha. Aham putram kukurat rakshami. Uttamam. Rao.
Yeah, I'm going to. I will try to say a long sentence. Please correct me if I'm wrong.
Yes.
Saumitri Saha, Sri Ramaha, Gandakavane, Bhayabhita, Mudigananam, Arakshat.
Kasmat, Panchami Nagata. Panchami Vibhakti Hinopayukta. Kasmat Rakshati.
No. Kasmat Rakshati. Astrena, cha shastrena.
No. See, astra and shastra is karanam. Tritiya.
Shastra is karanam.
The source of Vayasya Moolam.
Instead of saying Vaibhira, Bhayat Arakshat.
Bhayat or Asurebhyaha. So, Bhayat is okay, but the fear is due to the this one. So, Saumitrina Saha. Coming back to the your complete sentence. Saumitrina Saha. Saha ityasya
bhagane
tritiya vibhakti. Punarvartam. Saumitrina Saha Ramaha.
Dandakavane. Muniganam.
Muniganan.
Muniganan. Ayat Akshat.
Samyak. Sridhar Mahanaya.
Namaskar. Harinaha. Vyagra. Vittaha asti. Raja. Janan
Shatroho Athava Shatrubhyaha. It's easier. I mean, if you are in doubt, Bahuvachana is easier. You just add Bhyaha. So, Shatrubhyaha Janan Rakshati Athava Shatroho Janan Rakshati is perfectly correct. Okay. Anye Vaktumichanti Vakya Nirmanat Bhitaha. Please, anybody else? Padmanabhan.
Atra Shikshikayaha Prashnat Bhayam Bhitosmi. Komam Rakshati.
Yadi Kim Tadeva Arakshakad Bhitihi Maya Rakshaniyaha Yadi Ahameva Bhayam Janayami Tarhi Klesha Eva. Astutaha Bhashanam Doshat Rakshati. Okay, so you have to speak, then only you can protect yourself from errors. I mean, you have to correct your errors, then only you can improve. Okay, so we'll move ahead. So, Anyani Apadanani, Bahuni Apadanani, Paninina Uktani, Idanim Tritiyam Vidham Apadanam Pashyamaha, Ganga Himalayat Prabhavati. Ganga originates from the Himalayas. So, Kaveri Udakamandalat Prabhavati. So, Kaveri flows from the Udakamandala. So, the source or the origin of the river gets Panchami Vibhakti. Okay. So, Kutaha Prabhavati iti Pashyamaha. So, ye vaktum ichchanti hastam unnayantu. Meenakshi.
Yadi
पर्वतात् प्रभवति
ब्रह्मपुत्रः हिमालयात् प्रभवति
सिन्धुः मानसरोवरात् प्रभवति
सम्यक् वेङ्कटेशन्
यमुना यमुनेत्री हिमशैलात् प्रभवति
हिमशैलम् हिमशैलः इस् ग्लेसियर् सो यमुनोत्री हिमशैलात् प्रभवति
कृष्णा महाबलेश्वरात् प्रभवति
सम्यक् रमा
नमस्ते नर्मदा अमरकण्ठकात्
प्रवहति इत्यपि वक्तुं शक्यते प्रभवति इत्यपि
गोदावरी ब्रह्मगिरिपर्वतात्
सम्यक् sorry, I myself has have given the panchami. So I should have given the prathama. It's okay. Lakshmi?
Tunga Varaha Parvatat Prabhavati. Mahanadi Sihavaha Parvatat Prabhavati.
उमाशङ्करि
ताम्रपर्णी अगस्त्यकूटात् प्रभवति